एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षेण प्रधानमन्त्रिणा च केपी शर्मा ओलिना दलस्य संगठनानि सर्वेषां स्तराणां समितिश्च पुनः संघटयितुं निर्दिष्टं वर्तते। नेकपा दलस्य नुवाकोट जनपदीयं अग्रणी कार्यकर्तृमेलनं स्पूर्वेद्यो काष्ठमण्डपे सम्बोधयन् प्रधानमन्त्री ओली प्रतिनिधिसभाया विघटनेन निर्वाचनस्य दिनांकाश्च उद्घुष्टा सन्ति, हेतोः जनस्तरं गत्वा सक्रिया भवितुम् अन्वरुणत। प्रधानमन्त्री ओली दलेन जनताया बौद्धलीय जनवादस्य मूल विचारस्य मार्गदर्शनस्य आधारेण सम्प्रति जनताया जनवादस्य विचार अवलम्बित यश्च क्रमश परिमार्जयितुं शक्यते इति भाषमाण दल विभाजनेच्छुकै सह कोऽपि विचार नास्ति अतर्कयत। कतिपय नेतार यून विचालयितुम् अपेक्षन्ते इत्यारोपयन् प्रधानमन्त्री ओली आत्मभिः शान्तिपूर्ण गतिविधीनां पक्षे संस्थितम् अस्ति इति समस्पष्टयत्। प्रधानमन्त्री ओली आत्मभिः नहि हिंसा परं जनता विश्वस्यते इति चर्चयन् अवोचत्, विगत समये योद्धृणां वित्तस्य निर्वाचनस्य वा नाम्नि विहिता अनियमितता अतः परं नैव भविष्यति। प्रतिनिधि सभायाः विघटनस्य विरुद्धे सर्वोच्च न्यायालये पञ्जीकारितानाम् आदेशाभियाचन निवेदनानां श्रवणं श्रवणस्य क्रमे एव संस्थाप्य अद्य विधीयते। सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठे आदेशाभियाचन निवेदनेषु निवेदकानां पक्षतः विधि व्यवसायिनां विमर्शनं संचलद् वर्तते। ह्यो निवेदनेषु विधि व्यवसायिनः शिवकुमार यादवः, शेरबहादुर ढुङ्गना, हर्कबहादुर रावलः, रुद्र शर्मा, चन्द्रकान्त गेवाली च व्यमृशन्। सांविधानिक न्यायपीठे संचलत विमर्शनं प्राप्त बहुमतेन प्रधानमन्त्रिणा वित्तस्य संसदः विघटनस्य विषयेण वैधानिकता प्राप्यते नवेति विषये केन्द्रितम् आसीत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रचण्ड नेपाल समूहस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः भाषते दीर्घकालिक संघर्षस्य पश्चात् प्राप्ताम् उपलब्धिम् रक्षितुम् सर्वेषाम् भूमिका आवश्यकी वर्तते। प्रेस संगठन नेपालस्य द्वितीयम् राष्ट्रिय सम्मेलनम् ह्यः काष्ठमण्डपे सम्बोधयन् अध्यक्षः प्रचण्डः राष्ट्रस्य राजनीतिक परिवर्तने संचार जगतः भूमिका अनुकरणीया स्थिति चर्चयन् अगदत्, संचारकर्मिभिः संघीयतायाः संविधान सभायाः गणतन्त्रस्य पक्षे तर्कोपस्थापनस्य कारणेनैव परिवर्तनम् सम्भवम् अभवत्। कार्यक्रमे अपरोध्यक्षः माधव कुमार नेपालः राष्ट्रस्य राजनीतिक परिवर्तने संचार जगतः उल्लेख्य भूमिकाम् अस्मरत्। उप प्रधानमन्त्री ईश्वर पोखरेलः कथयति काष्ठमण्डप चक्रपथ विस्तारा योजनायाम् अनुचित याचना स्वीकार्या न भवति। ह्य सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये आयोजिते समस्या समाधानाय अन्तर मन्त्रालय प्रदेश स्थानीय स्तराणां समन्वयात्मके उपवेशे उप प्रधानमन्त्री पोखरेलः राज्ये न अवलम्बितायां नीत्यां योजनासु च सर्वान् निकायान् समन्वयं विधाय अग्रे वर्धितुं निरदिशत। उपवेशे भौतिक पूर्वाधार यातायात मन्त्री वसन्त नेवांग अवोचत्, चक्रपथ विस्तार निर्माणस्य क्रमे उत्पन्नाः समस्याः समाधाय अग्रे वर्धनीयम्। अर्थमन्त्री विष्णुप्रसाद पौडेल कथयति कोविड ऊनविंशते कारणेन अत्यधिकं प्रभावितं पर्यटन क्षेत्रं चलनशीलं विधातुं सर्वकारः आवश्यक सहयोगं विददाति। ह्य अर्थमन्त्रालये पर्यटनातिथि सदन व्यवसायस्य प्रतिनिधिभिः सह सम्पन्ने विमर्शन कार्यक्रमे अर्थमन्त्री पौडेल सर्वकारेण सहायता सौविध्य प्रोत्साहनानां कार्यक्रमाः आनीताः सन्तीति ब्रुवन्। कार्यक्रमाणां प्रभावकारितया क्रियान्वयनाय बलं प्रादात्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री भानुभक्त ढकालः पर्यटन क्षेत्रे उद्भूतानां समस्यानां समाधानाय मन्त्रालयेन सम्बद्ध क्षेत्रेण सह विमृष्टम् अस्तीति ज्ञापयन्, कोविड ऊनविंशतेः कारणेन सर्वकाराय उद्भूतं काठिन्यमपि बोद्धुं नैज क्षेत्रम् अन्वरुणत्। अत्रान्तरे पर्यटन क्षेत्रे कार्यरताभिः सर्वकारीयस्य नैजस्य च क्षेत्रस्य अग्रणी संस्थाभिः वैदेशिक पर्यटकानाम् आकर्षणाय विमानमार्गेण स्थलमार्गेण च नेपाल प्रवेशनस्य सम्पूर्ण प्रवेशबिन्दुषु प्रवेशाज्ञा प्रदान सेवां सञ्चालयितुं सर्वकारस्य ध्यानम् आकर्षितमस्ति। नेपाल पर्यटन समित्या सम्बद्ध संघ संस्थाभिः सह वृहद् विमृश्य प्रवेशाज्ञा प्रक्रियाया सहजीकरण पुरस्सरं स्वास्थ्य मापदण्डं सरलीकर्तुं संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयः अनुरुद्धो दः इति ह्यः विज्ञप्तेर्माध्यमेन ज्ञापितं वर्तते। कोविड उनविंशतेः प्रभावेण शिथिलं नेपालस्य अर्थतन्त्रं प्राक्तन्याम् अवस्थायां प्रत्यावर्तयितुम् आसन्न 6 खर्वाः 65 अब्जानि च रूप्यकाणि अपेक्षन्ते इति राष्ट्रिय योजनायोगेन प्रक्षेपितं वर्तते। आयोगेन गतार्थिक वर्षस्य तृतीय चातुर्मासिकावधौ कोरोना विषाणोः महामार्याः कारणेन अर्थतन्त्रे सृष्टं प्रभावं प्राप्तां क्षतिञ्च विश्लिष्यता सहयोग पुनरुत्थान रणनीतिम् अग्रेसारयित्वा संक्रमण नियन्त्रणं सहयोगः मृत्युपार्जनम् आयोजनानां नैरन्तर्यं नूतन प्रणाली विकासः आत्मनिर्भरतायाः अभिवृद्धिश्चेति लक्ष्याणि निर्धारितानि सन्ति। नेपाले कोरोना विषाणो संक्रमणात् प्रतिशतं 99.97% जनाः मुक्ताः सन्ति। ह्य 41.74% जनैः संक्रमणात् स्वास्थ्यलाभ प्राप्तेः अनन्तरं संक्रमणमुक्तानां जनानां प्रतिशतं 99.97% प्राप्तमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्य अतिरिक्ताः 48.73% संक्रान्ताः जनाः वर्धिताः सन्ति। ह्यस्तनावधि आराष्टं 1,764 च कोरोना विषाणोः सक्रिय संक्रान्ताः जनाः वर्तन्ते। कोरोना संक्रमणेन ह्य अतिरिक्ताः 4 जनाः मृताः। नेपाले ह्यस्तनावधि संक्रमणेन मृतानां जनानां समग्र संख्या 1,679% च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। इति समाचारः।